सप्तमो अध्यायम् ध्यानम् ओम ध्यायेयं रत्नपीठे शुककला पतितं श्रीमतीं श्यामलाङ्गीं नास्तिकाङ्घ्रीं सरोजे शशिसकलदारां पालकीं बाधयन्तीं कलारबदामालं नियमितबिलसच्छूलिकां रक्तवस्त्रां मातंगी शंखपात्रं मधुर मधुमदां चित्रकोद्भासी बालां ॐ ऋषिरुवाच आज्ञातस्ते ततो दैत्यास् चण्डमुण्डपुरोगमा चतुरङ्गपलोभेता गगिर्भ्युदधायुधा तदृशुस्ते ततो देवीम् ईशदास्तां व्यवस्थितां सिंहस्योपरि शैलेन्द्रा शृङ्गे महति काञ्चने तिदृष्ट्वा तां समादातुम् उद्यमां चक्रुरुद्यता अकृष्टचापा सीतरास् ततहान्येतत् समीपगा तथा कोपं चकारोच्चैरम्बिकाधनरीन् प्रति कोपेन चास्य वदनं मशीवर्णमभूतदा मृकुतिकुटिला तस्या ललाटफलकाद्युतं कालीकरालपन्ना विनिष्क्रान्तासी पातिनी विचित्रकर्पाङ्गदरा नरमालाविभूषणा द्वीपी चर्मपरिदाना शुष्कमांसस्थिभैरवा अतिविस्तारपदना जिह्वालालनभीषणा निमन्ना रक्तनयना नदपूरितनिमुखा सा बेगिन्ना विपतिता गातयन्ति महासुरा सैन्ये तत्प्राशुराणीनाम् अवक्षयत् तद्बलां भर्ष्णीग्राहाङ्कुशग्रही योधकाङ्क्षा समन्विता समादायैकहस्तिना मुखे चिक्षेपबाह्नान् तथैव योदङ्कुरकै रतहंसारतिना सह निक्षिप्य वक्त्रैदशनैश् चर्वयन्त्यति भैरवम् एकं जग्राहकेशेषु ग्रीवायं मत्तचापुरं फादिनाक्रम्य चैवान्यम् उरसान्यमपूतयत् सुहिर्मुक्तानि च शस्त्राणि महास्त्राणि तथाश्रये मुखेन जग्राहर्षा दशनिर्मति तान्यपि बलिनां तद्बलं सर्वम् असुराणां दुरात्मनां ममार्दपक्षयश्चान्यान् अन्यांश्च तातयत्तता अस्तिनानि यथा किञ्चित् किञ्चित् खड्वाङ्गथार्डिता जगमुर्विनाशम् असुरा दन्ताग्राभि हतास्तत क्षणेन तद्बलं सर्वम् असुराणां निपातितं दृष्ट्वा चण्डो विद्युद्रावा थङ्खाली मतिभीषणां शर्वशकी महाभीमहिर्विमाक्षीं तां महासुरा छाद्दयामस चक्रैश्च मुन्दक्षितहि सहस्रश थानि चक्राण्यनेकानि विषमान्नानि तन्मुखाम् Baburyatarka bimbani shubahuni ganodaram tato jahasa tirusha bimang boirabandadini kali karala patrantar dudarsha dasha nojvalam utayacha mahasinghang devi chandam adavata grihitvacha shakesheshu tiraste nasi natinat ataha mundo vyatavatam drishtva chandam dipatitam tamapya pata kyad bhumau sakhagabi hetang rasha hatasi shang tatasanyang drishtva chandam dipatitam munang cha sumahabiryam disho beche bayaturam shirashchandasya kalicha grihitva mundamevacha praka prachandatasa misramabhyaitaya chandikam mayata vatro paritao chandamundao mahapasu yudhyage svayam shimbam nishumbam cha hanisyasi rishiruvacham tabanito tato drishtva chandamundao makasurao uvacha kalim kalyani lalitam chandikavacha yasmachandam chamundam cha grihitva tamupagata chamundeti tatoleke kyata devi bhavishyasi om.